सत्संगात् भव निःस्पृहो गुरुमुखात् श्रीशं प्रपद्यात्मवान् प्रारब्धं परिभुज्य कर्म सकलं प्रक्षीण कर्मांतरः न्यासादेव निरंकुशेश्वरदया निर्लूनमायान्वयो हार्दानुग्रहलब्धमध्यधमनिद्वारात् बहिर्निर्गतः मुक्तोऽर्चिर्दिनपूर्वपक्षषडुदं मासाब्दवातां सुमत् ग्लौर्विद्युद्वरुणेन्द्रधातृमहितः सीमान्तसिन्ध्वाप्लुतः श्रीवैकुण्ठमुपेत्य नित्यमजडम् तस्मिन् परब्रह्मणः सायुज्यं समवाप्य नन्दति समम् तेनैव धन्यः पुमान् प्रातर्नित्यानुसन्धेयम् परमार्धं मुमुक्षुभिः श्लोकद्वयेन संक्षिप्तम् सुव्यक्तं वरदो ब्रवीत्।